इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्दझाः। अथ वार्ताः। एकं भारतीयान्तरिक्षयात्रिणं नीत्वा भारतस्य अन्ताराष्ट्रियम् अन्तरिक्षाभियानम् आगामिनि मासे आरप्स्यते। अन्तरिक्ष परमाणूर्जा राज्यमन्त्रिणा डॉ जितेन्द्र सिंहेन आगामिषु मासेषु भारतीयान्तरिक्षानुसन्धान संघटन प्रमुख भविष्यत्कालिक योजनानां समीक्षायै आयोजितस्य उच्चस्तरीयोपवेशनस्य अनन्तरम् एषा घोषणा कृता। श्रीमता सिंहेन उक्तं यत् भारतं स्वीया कामिने अन्तरिक्षाभियानाय सन्नद्धं वर्तते। केन्द्रीयः गृहमन्त्री अमितशाहः अवदत् यत् छत्तीसगढस्य सुकमाजनपदे त्रयस्त्रिंशद्भिः नक्सलवादिभिः आत्मसमर्पणं कृतम्। एकस्मिन् सामाजिक सन्देशपटले श्रीमता साहेन उक्तं यत् सुकमायाः बडसेटी पञ्चायतस्य एकादश नक्सलवादिनः आत्मसमर्पणं कृतवन्तः। इत्थं सम्प्रति पञ्चायत्तमेतत् पूर्णतः नक्सलमुक्तम् अभवत्। गृहमन्त्रिणा नक्सलमुक्त भारताभियाने एतस्यै सफलतायै सुरक्षाबलकर्मिणः छत्तीसगढरक्षिबलानि च वर्धापितानि। पञ्चविंशत्यधिकद्विसहस्रतमाब्दीय जेईई द्वितीय सत्रीय मेन संयुक्त प्रवेशपरीक्षायाः परिणामः अद्य घोषयिष्यते। राष्ट्रिय परीक्षाभिकरणेन उक्तं यत् परिणामः जेईई मेन अन्तर्जाल पटले jeemain.nta.nic.in इत्यत्र उपलब्धो भविष्यत्। पश्चिम बंगालस्य विकासस्य विषये बांग्लादेशस्य अधिकारिभिः कृताः टिप्पण्यः भारतेन अस्वीकृताः। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः एतां टिप्पणीम् आलक्ष्य उक्तवान् यत् बांग्लादेशे अल्पसंख्याकानाम् उपरि प्रचलितोत्पीडनस्य विषये भारतस्य समाह्वानैः सह सम्बन्धम् एकं छद्म कपटपूर्णं च प्रयासः इति उक्तवान्, यत्र एतादृशेषु प्रकरणेषु संलग्नाः अपराधिनः अद्यापि मुक्ताः भ्रमन्ति। सः अवदत् यत् अनुचित टिप्पण्यः कृत्वा सद्गुणानां प्रदर्शनं विहाय बांग्लादेशः स्वस्य अल्पसंख्याकानाम् अधिकाराणां च रक्षणे ध्यानं प्रदद्यात्। प्रधानमन्त्रिणः संकलित भाषणानां पुस्तकं संस्कृतिका पाँचवा अध्यायः इत्येतं नवदिल्ल्यां गतवासरे विमोचितम्। जूना अखाड़ा इत्यस्य प्रमुखः आचार्यः महामण्डलेश्वरः स्वामी अवधेशानन्दगिरिः अस्य पुस्तकस्य विमोचनं कृतवान्। अथ क्रीडावार्ताः। सऊदी अरबस्य दम्ममे 18 वर्षतः अधः वयोवर्गीयेभ्यः आयोजितायाम् एशियन एथलेटिक्स नायकस्पर्धा मालिकायां भारतस्य हिमांशु जाखरेण स्वर्णपदकं विजितम्। अत्र स्पर्धायां भारतस्य इदं प्रथमं स्वर्णपदकं वर्तते। IPL इति इण्डियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां पंजाब किंग्स दलेन रॉयल चैलेंजर्स बेंगलुरु दलं 5 क्रीडकैः पराजितम्। वृष्ट्या प्रभाविता 14 क्षेपचक्रीया एषा स्पर्धा गतरात्रौ बेंगलुरु नगरे एम चिन्नास्वामी क्रीडांगणे आयोजिता। अद्य स्पर्धा द्वयम् आयोजयिष्यते। तत्र सर्वादौ अहमदाबादे अपराह्णे 3:30 गुजरात टाइटन्स इति दलं दिल्ली कैपिटल्स दलं सम्मुखीकरिष्यति। अपरतः सायं 7:30 राजस्थाने जयपुरे राजस्थान रॉयल्स दलं लखनऊ सुपर जायंट्स इति दलेन स्पर्धिष्यते इति वार्ताः।